ओम ऋषि उवाच इत्याग्निवचो देव्याः सदूतो मृषपूर्तः समाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्या सरदात् ततः सक्रोधप्रादैत्यानामतिमं धूमुर्लोचनं हे धूमुर्लोचनाशुत्वं स्वसैन्यपरिवार्तः तामाने बलाद्दुष्टां केशाकर्षणविह्वलान् तत्परित्राणदः कच्चिद्यदिवोत्तिष्ठते परः स गन्तव्यो मुरोवापि यक्षो गन्धर्वयेव वा ऋषिरुवाच तेनाज्ञप्तस्तदशीघ्रं स दैत्यो धूमुर्लोचनः भृतश्चा सहस्राणाम् असुराणां धृतं ययो स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थितां जगादोच्चे प्रियाहीति मूलं शुम्भर्शुम्भयोः न चेत् प्रीत्याद्य भवति मद्भक्तानमुपविशति ततो बलान् नयाम्येष केशाकर्षणविह्वलां देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान् नयसि मामेवं ततः चिन्ते करोम्यहं ऋषिरुवाच इत्युक्तः सोऽभ्युदावत्तामसो धूम्रलोचनः हुङ्कारेणैव स्तम्भस्म सा चकाराम्बिका ततः असक्रुद्धं महासैन्यमसुराणां दताम्बिका भवर्षसायकैस्तीक्ष्णैस्तदा शक्तिपरस्वतैः ततो दुरसरकोपात् कृत्वा नादं सुवैरवं पपातासुरसेनायां सिंहो देव्या स्वभागनः काञ्चित् करप्रहारेण दैत्यानास्येन चापुरान् आक्रम्य चाद्रेणान्यान् सजघानमहासुरान् केषाञ्चित् पाठयामास नखैकोष्ठान् केसरी तथा तलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्नभावशिरसः कृतास्तेन तथापुरे पपोचरुद्रं कोष्ठादनेषां धृतकेसरः क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना तेन केसरिणा देव्या वाहनेनादिगोपिना श्रुत्वा तमसुरं देव्या निकटं धूम्रलोचनं बलं च क्षेत्रं कृत्स्नं देवी केसरिणा ततः चुकोपदैत्यादिभिः शुम्भः प्रस्फुर्दादरः आज्ञापयामास चतौ चण्डमुण्डो महासो हे चण्ड हे मुण्ड बलै बहुभिर्परिवारतो तत्र गच्छत कृत्वा च सासमानीयतां लघु केशेष्वाकृष्य बद्वाभा यदिव संचुयुधि तदा शेषायुधैः सर्वैरसुरैर्विनिहन्यताम् तस्यां हतायां दुष्टायां सिंहे च विनिपादते शीघ्रमागम्यतां मत्वा गृहीत्वा तामताम्बिकाम् ॐ श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये शुम्भनिशुम्भसेनानी धूमुर्लोचनमधोनां षष्ठः ॐ तत्सत्